सञ्जाग्रवद्भिर्जरमाण इध्यते तमेतमो न इषयन् ऋणस्पदे विश्वस्य होता हविषोपरेण्या विभुर्विभावा सुषघा सखीयते सदर्शतश्रेरतिथिर्गृहे गृहे वने वने शिश्रजे तक्पमेदिव जनम् जनम् जन्यो नातिमन्यते विष आक्षेति विश्यो विषम् विषम् सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्ये नासि विश्ववित वसुर्वसो नाम् क्षयसि त्वमेक इद्यावा च जानि पृथिवी तपुष्यतः प्रजानन्नग्ने तभजोरिमृत्विजविडाजास्पदे घृतवन्तमासदः आते चिकित्र उषसा विवेतजोरेपसस्सौर्यस्येव रश्मजाः तपश्रिजो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसान्न केतवाः यदोषधेरपि सृष्टो वनानि च परिस्फलञ्चि नुषे अन्नमास्ये तमोषधेऽर्दधिरे गर्भमृत्युजन्तमापो अग्निञ्जनयन्तमातराः तमित्समानम् वरिनश्च वेरुधोऽन्तर्वदेश्च सुवदेत विश्वः वातो अपधोत इषितो वशाम् अनुतृषयदन्नावे विषद्विदिष्ठस आते ददन्ते रथ्यो यथा पृथक्षर्धांस्यग्ने अजराडिधक्षतः मेधाकारम् विदधस्य प्रसादनभग्निम् हतारम्बरिभोतमम् मदेम् त्वमिदर्भे हविष्यासमानमित्तमिन्महे वृणते नान्यन्वद स्वामि तत्र वृणते त्वाजवोहोतारमग्ने विदधे शुभेधसाः यत्ते भजन्तो दधति प्रजांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः तवा अग्ने होत्रन्तव पोत्रभृत्विजन्तव नेष्टन्तमग्निद्रुता जतः तव प्रशास्त्रन्तमध्वरेजसि ब्रह्माजासि गृहपतिश्च नोदमे यस्तभ्यमग्ने अमृता जमर्त्यः समिधादाशदुतवा हविष्कृते तस्य होता भवसि यासि दोत्या अवपप्रोषे जजस्य ध्वरेजसे इमा अस्मै मतजो वाचो अस्मदाङ्ग्रचो गिरःसुष्ठुतजः समग्मदा वसो जवो वसवे जातवे एतसे वृद्धासु चिद्वर्धनो जासु चाकनत इमाम् भ्रत्नाज सुष्टदिन्नवीजसेम् वोचेदमस्मा उषते शृणोतु नः भोजा अन्तरा हृद्यस्य निःस्पृशे दादे भवत्य उषते सुवासाः यस्मिन्नश्वा सर्षभास उक्षणा वशा वेषा अवसृष्टा स आहुताः कीलालपे सोपपृष्ठा च वेधसे हृदा पतिञ्जनजे चारुभग्नजे अहाव्यग्ने हविरास्ये ते सृजे एव घृतम् चम्बे एव सोमाः वाजसनिम् व्रजि भस्मे सुबीरम् वृषस्तन्धे हि यशसम् बृहन्तम्